अथ कीलकम्। ओम अस्य श्री कीलक मंत्रस्य शिव ऋषिः अनुष्टुप् छन्दः श्री महासरस्वती देवता श्री जगदम्बा प्रीत्यर्थं सप्तशती पाठंगत्वेन जपे विनियोगः। ओम नमः शंडिकायै। मार्कण्डेयोवाच। ओम विशुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेय प्राप्त निमित्ताय नमः। सोमार्ध धारिणे सर्वमेतद्विजानीयान् मन्तानाम विकीलकम् सोऽपि क्षेमम् अवाप्नोति सततंग जाप्य तत्परः। सिद्धयन्तु चाटनादीन वस्तूनि सकलान्यपि एतेन स्तुवतां देवि स्तोत्रमात्रेण सिद्ध्यते। न मन्त्रो नोषधं तत्र न किञ्चिदपि विद्यते विना जापेन सिद्ध्येत सर्वमुच्चाटनादिकं। समग्रान्यपि सिद्ध्यन्ति लोकशङ्कामीमांहरः कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभं। स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकारसः समाप्तेन च पुण्यस्य तांगिथावन्नियन्त्रणां सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः। कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ददात् पृथगृहणादिनान्नथैषा प्रसीदति। इत्थङ्गरूपेण कीलेन महादेवेन कीलितं यो निष्कीलाङ्गविधायीनां नित्यं जपति संस्फुटं सा सिद्धः सा गणः सोऽपि गन्धर्वो जायते नरः। न चैवाप्यटतस्य भयं क्वापीह जायते नापमृत्ववशङ्याति मृतो मोक्षमवाप्नुयात्। ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ततो ज्ञात्वैव सम्पन्नम् इदं प्रारभ्यते बुधैः। सौभाग्यादित यत्किञ्चित् दृश्यते ललनाजने तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्। शनैस्तु जप्यमानस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव च। ऐश्वर्यं यत्प्रसादेन सौभाग्य आरोग्यसम्पदः शत्रुहानिः परो मोक्षः स्तूयते सा न किञ्जनैः। ॐ इति देव्याः कीलकस्तोत्रं सम्पूर्णम्।